एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। नेपाल चीन देशयोः सीमाक्षेत्रस्य लेन्देनद्यां गत सोमवासरस्य रात्रौ दूरापन्ने जलविप्लवे निपत्य विलुप्तेषु पञ्चविंशत्यां जनेषु सप्तशवाः प्राप्ताः वर्तन्ते। नेपाल प्रहरिणः अनुसारेण अधुनापि अष्टादश जनाः विलुप्ताः वर्तन्ते। जलविप्लवे अवरुद्धः पञ्चपञ्चाशत् जनाः उद्धृताः वर्तन्ते। सम्पर्कविहीनानां जनानाम् अन्वेषणाय नेपाली सेनायाः धादिङ जनपदस्य श्रेष्ठ वाहिनी समूहात् गल्छी स्थानेन सह सप्तदशसु स्थानेषु चतुर्नवत्यधिक शतद्वयं जनाः, रसुवा जनपदस्य श्रीनाथ गणात् अतिरिक्ताः आवश्यक सैनिकाश्च परिचालिताः सन्तीति सैनिक जनसम्पर्क निर्देशनालयेन ज्ञापितं वर्तते। रसुवा जनपदस्य सहायक प्रमुख जनपदाधिकारिणः ध्रुव प्रसाद अधिकारिणः अनुसारेण जलविप्लवस्य कारणेन त्रयोविंशतिः वस्तुवाहकानि विपुलयानानि, षड् वस्तुवाहक ट्रक यानानि, पञ्चत्रिंशत् नूतनानि वैद्युत यानानि चेति कृत्वा समग्रतः चतुष्षष्टि यानानि प्रवाहितानि वर्तन्ते। जलविप्लवस्य कारणेन नद्यः तटीय क्षेत्रस्य भूमेः प्रवाहणेन एकादशोत्तरशत मेगावाट मित क्षमतायाः रसुवागढ़ी जलविद्युत केन्द्रस्य उत्पादनं पूर्णतः अवरुद्धमस्ति। अत्रान्तरे प्रधानमन्त्रिणा केपी शर्मा ओलिना नेपाल चीन देशयोः सीमाक्षेत्रस्य लेन्दे नद्यां भोटेकोशी नद्याश्च दूरापन्नस्य भूस्खलनस्य कारणेन सम्भूतायाः जनधनयोः क्षतेः स्थलगतम् अवलोकनं विहितं वर्तते। प्रधानमन्त्रिणा ओलिना सह उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः, गृहमन्त्री रमेश लेखकः, ऊर्जो जलस्रोत सेचन मन्त्री दीपक खड्का, प्रधानमन्त्रिणः मुख्य परामर्शदाता विष्णु प्रसाद रिमालश्च आसन्। सहैव नेपाल सर्वकारस्य मुख्य सचिवः एकनारायण अर्यालः, नेपालस्य कृते चीन देशीय राजदूतः चेन सुङ, सेनायाः प्रहरिणश्च अधिकारिणश्च प्रभावित क्षेत्रस्य अवलोकनाय गताः आसन्। तदवसरे प्रधानमन्त्रिणा ओलिना जलविप्लवेन प्रभावितानां जनानाम् उद्धाराय सर्वकारेण युद्धस्तरेण कार्यं विधीयमानमस्तीति सूचितं वर्तते। प्रधानमन्त्री ओली ह्य सामाजिक सञ्जालस्य माध्यमेन उद्धार कार्ये सर्वकारस्य पक्षतः कथं विधापि न्यूनता न भवतु इत्युक्त्वा सम्बद्धाधिकारिणः निर्दिष्टाश्च वर्तन्ते इति सूचितवान् अस्ति। अत्रान्तरे नेपाल चीन देशयोः सीमाक्षेत्रे दूरापन्नेन जलविप्लवेन सम्भूतायाः क्षतेः प्रभावित क्षेत्रेषु उद्धाराय सहयोगे परिचालिताः भवितुं नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा भिदेन, नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन च स्वकीय कार्यकर्तारः अनुरुद्धाः सन्ति। सहैव जलविप्लवेन जातां जनधनयोः क्षतिं प्रति दुःखं व्यक्तं च वर्तते। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री शरद सिंह भण्डारी भाषते सर्वकारेण सञ्चालितेन श्रम संसार इति पोर्टल सञ्जालेन वृत्तिसर्जकानां श्रमिकाणां च मध्ये मध्यस्थतायाः कार्यं विहितमस्ति। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री भण्डारी एवम् उक्तवान्। तथैव उपवेशे उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी चीन सर्वकारस्य सहयोगेन रसुवागढ़ी स्थाने निर्माणाधीने शुष्कस्थलमार्ग वाणिज्य केन्द्रे ह्य रात्रौ दूरापन्नेन जलविप्लवेन विहितायाः क्षतेः मूल्यांकनं विधाय सर्वकारेण पुनर्निर्माण कार्यम् अग्रे सार्यते इति अवदत्। उपवेशे युवखेल कूर्द मन्त्री तेजुलाल चौधरी, नेपालगंज वर्तिन्या महिला क्रिकेट रंगशालायाः निर्माणस्य कृते सर्वकारेण कोटित्रय रूप्यकात्मकं वित्तं विनियुक्तमस्तीति असूचयत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः रक्षामन्त्री मानवीर राई सांविधानिक परिषदा सम्बद्धे विधेयके राष्ट्रियसभातः संशोधनं विधीयतामिति निगद्य प्रस्तुतं प्रस्तावमाधृत्य सामान्यं विमर्शनं सम्भूतमस्ति। तत्पूर्वम् उपवेशे सांसदः गतरात्रौ रसुवा नुवाकोट धादिङ जनपदेषु दुरापन्ने जलविप्लवे पतितानां जनानाम् उद्धार कार्यम् विलुप्तानां जनानाम् अन्वेषण कार्यम् च तीव्रतया अग्रे सारयितुं सर्वकारस्य ध्यानाकर्षणम् विहितवन्तः। उपवेशस्य आकस्मिक समये सांसदः विश्वप्रकाश शर्मा हरिप्रसाद उप्रेति देवेन्द्र पौडेलश्च स्वकीयां धारणां व्यक्तवन्तः। प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा एकवादने वस्ता। शिक्षा विज्ञान प्रविधि मन्त्री रघुजी पन्तः सर्वकारीयाणां सामुदायिकानां च विद्यालयानां शैक्षिक गुणस्तरस्य सुधारः आवश्यकोऽस्तीति उक्तवान् वर्तते। राष्ट्रियसभायाः ह्यस्तनोपवेशे सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री पन्तः संसदः अस्मादेव अधिवेशनात् विद्यालय शिक्षा विधेयकं पारितीकृत्य क्रियान्वयने आनेतुं प्रयासः विधीयमानोऽस्तीति चर्चयन् उच्चशिक्षामपि समयानुकूलां विधातुं यूनां विदेश शेषु पलायनम् अवरोद्धुं च प्रयासो विधीयते इति अगदत्। राष्ट्रियसभायाः ह्यस्तनोपवेशे 49-उत्तर-2000 वैक्रमाब्दस्य त्रिभुवन विश्वविद्यालयाधिनियमस्य अन्तर्गतं निर्मितस्य प्रत्यायोजित विधायनस्य क्रियान्वयनस्य अवस्थया सम्बद्धं गतविक्रमवर्षीयम् अध्ययन प्रतिवेदनमाधृत्य विमृष्टमस्ति। उपवेशे वर्षायामज विपत् संकट न्यूनीकरणस्य पूर्वकार्ये सहयोगोद्धार कार्ये च दायित्ववाहि भूत्वा प्रवर्तितुं राष्ट्रियसभया सर्वकारः निर्दिष्टोऽस्ति। सांसदः रसुवा जनपदे जलविप्लव भूस्खलनयोः विलुप्तानां जनानाम् अन्वेषणाय तीव्रतां प्रदातुं सहयोगोद्धारं च विधातुं राज्यस्य सर्वेषां संयन्त्राणां परिचालनाय सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रियसभायाः अपरोपवेश परश्वः शुक्रवासरे मध्याह्नस्य 12:15 वस्ता। प्रधानमन्त्री केपी शर्मा ओली सहितानां सत्तारूढयो द्वयोः प्रमुखदलयोः शीर्षस्थ नेतृणां मध्ये ह्यो विमर्शनं सम्भूतमस्ति। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टे उपवेशे नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा, उपसभापतिः पूर्णबहादुर खड्का, गृहमन्त्री रमेश लेखकः, नेकपा एमाले दलस्य महासचिवः शंकर पोखरेलः, उपमहासचिवः विष्णु रिमालश्च सहभागिनः आसन्। सर्वकारस्य आन्दोलनरतस्य नेपाल चिकित्सक संघस्य च मध्ये सहमतिर्धृता अस्ति। सर्वकारस्य आन्दोलनरतस्य चिकित्सक संघस्य च मध्ये त्रिसूत्रात्मिक्या सहमत्या सहैव संघेन आन्दोलनस्य सर्वे कार्यक्रमाः स्थगितीकृताः सन्ति। उपभोक्तृ न्यायालयेन चिकित्सकीयाभ्यास सम्बद्धे न्यायिक निवेदने विहितस्य दण्डनस्य निर्णयं प्रति आपत्तिं प्राकटय्य संघस्य नेतृत्वे चिकित्सकै स्वास्थ्यकर्मिभिश्च गत सोम मंगलवासरयोः आकस्मिके तरस्य सम्पूर्णा सेवा अवरोधिता आसन्। प्रधान न्यायाधीशः प्रकाशमान सिंह राउत सर्वोच्च न्यायालयस्य कृते नवनियुक्तान् त्रीन् न्यायाधीशान् पदगोपनीयतयोः शपथम् अग्राहयत्। सर्वोच्च न्यायालये ह्य आयोजिते समारोहे प्रधान न्यायाधीशः राउत मेघराज पोखरेलः, श्रीकान्त पौडेलः, शान्ति सिंह थापा चेत्येतान् न्यायाधीशान् पदगोपनीयतयोः शपथम् अग्राहयत्। न्यायपरिषदः परामर्शेन संसदीय श्रवण समित्या एतेषां नाम्नाम् अनुमोदनानन्तरं राष्ट्रपतिना रामचन्द्र पौडेलेन गत सोमवासरे सर्वोच्च न्यायालयस्य न्यायाधीश पदे एते नियुक्ताः आसन्। शपथग्रहणानन्तरं ह्यस्तनात् दिवसादेव त्रिभिः न्यायाधीशैः कार्यभारः गृहीतोऽस्ति। एवमेव प्रधान न्यायाधीशः राउतः नवनियुक्तं न्यायपरिषद सदस्यं महेश कुमार नेपालं च पदगोपनीयतयोः शपथम् अग्राहयत्। जनकपुरधाम उपमहानगरपालिकायाः 16 क्षेत्रस्य कपिलेश्वर बजारटोलवर्तिनी भैया तडागे निमज्य भगिन्यौ मृतौ स्तः। मृतकौ चतुर्वर्षीया आरोही कुमारी राउत, त्रिवर्षीया मैथिली कुमारी च वर्तते इति प्रहरिणा ज्ञापितं वर्तते।